यदि कथमपि धारा वाहे नाबोधनेन ध्रुवमुपलभमानः शुद्धमात्मानमास्ते तदयमुदयदात्मा राममात्मानमात्मा परपरिणतिरोधाच्छुद्धमेवाभ्युपैति।